तत्र गदाश्व बहवस्तापसा भक्तिशालिनः चक्रीरे विधिना भक्त्या भूतनाथस्य पूजनम् दूरे पञ्चद्वये देवयोजनायां तु तत्रतः रमे पर्वतशृङ्गाग्रे तापसाश्च तपोबलात् कृत्वा रुग्मालयं तस्मिन्नन्तरे मणिकन्धरम् रत्नसिंहासने रम्ये संस्थाप्य सकलेश्वरम् कृत्वा तल्पूजनं तत्र तोष्टस्ते मुनयः सदा।